इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुरुषोत्तम शर्मा। आदौ मुख्य वार्ताः। भारतीय जनता पार्टीति दलस्य वरिष्ठो नेता प्रधानमन्त्री नरेन्द्र मोदी च अद्य राष्ट्रिय जनतान्त्रिक संयुतेः प्रत्याशिनां समर्थनाय पुदुचेरी नगर्यां पदयात्राम् अकरोत्। केन्द्रप्रशासनेन राज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च LPG इत्यस्य अन्यतैलोत्पादानां च सञ्चयम् अवैधविपणनं च वारयितुम् आवश्यकं कार्याचरणम् अध्यर्थितम्। वाणिज्योद्योगमन्त्री पीयूषगोयलः अवादीत् यत् ऐषमो जनविश्वासविधेयकम् उद्दिश्य विश्वासाधारितप्रशासनं वर्धनं वर्तते। शिक्षामन्त्रालयेन NCERT इति राष्ट्रियशैक्षिकानुसन्धानसंस्थानं पृथक् श्रेण्यां मानितविश्वविद्यालयः घोषितः। अपि च भारतस्य निकहतजरीनः, प्रिया गङ्गासः, प्रीतिपवारश्च एशियन बॉक्सिंग चैम्पियनशिप इति मुष्टामुष्टिस्पर्धायाम् उपान्त्यचक्रे प्रविष्टवत्यः। अथ वार्ताः विस्तरेण। भारतीय जनता पार्टीति दलस्य वरिष्ठो नेता प्रधानमन्त्री नरेन्द्र मोदी च अद्य निर्वाचनप्रचाराय पुदुचेरी नगर्यां प्राप्तः। श्रीमोदी अजन्ता सिग्नल जंक्शन इति स्थलात् राजा थिएटर सिग्नल इति स्थात्रं यावत् पदयात्राम् अकरोत्। यात्रावधौ श्रीमोदी दलकार्यकर्तृणां, समर्थकानां, जनानां च अभिवादनं स्वीकृतवान्। अत्रावसरे पुदुचेर्याः मुख्यमन्त्री एन रंगासामी, भाजपेति दलस्य प्रदेशाध्यक्षः KP रामलिंगम् इत्यसौ च अवर्तताम्। अस्यां पदयात्रायां महिलाः, बालाः, युवानाः च मार्गस्य उभयतः स्थिताः आसन्। अतः परं श्रीमोदी चेन्नई नगरं प्रति प्रस्थितः। प्रशासनेन राज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च LPG इत्यस्य अन्यतैलोत्पादानां च सञ्चयम् अवैधविपणनं च वारयितुम् आवश्यकं कार्याचरणम् अध्यर्थितम्। खनिपदार्थप्राप्तिकेन्द्रेन मन्त्रालयस्य सचिवः डॉ. नीरज मित्तलः अस्मिन् सन्दर्भे राज्येभ्यः केन्द्रशासितप्रदेशेभ्यः च पत्रम् अलिखत्। राज्येभ्यः अनियमितसञ्चयं वितरणे, अनियमिततायां भ्रामकसूचनानां प्रसारे च सतर्कतायाः परामर्शो दत्तः। मन्त्रालयेन उक्तं यत् सर्वे तैलशोधकसमवायाः उच्चक्षमतायां कार्यं कुर्वन्ति। देशे अशोधिततैलस्य पर्याप्तभण्डारो वर्तते। पेट्रोल डीजल इत्यनयोः अपि पर्याप्तभण्डारः अस्ति। प्रशासनेन उक्तं यत् राज्यानि, केन्द्रशासितप्रदेशाश्च समयेन सञ्चारमाध्यमेषु वास्तविकस्थितेः प्रचारमपि कुर्युः। वाणिज्योद्योगमन्त्री पीयूषगोयलः अवादीत् यत् ऐषमो जनविश्वासविधेयकम् उद्देश्यं विश्वासाधारितशासनस्य वर्धनं वर्तते। वाणिज्योद्योगमन्त्री पीयूषगोयलः अवादीत् यत् विधेयकेऽस्मिन् उन्नयनाय, समयवित्तप्रशासनिक आपीडन्यूनीकरणाय च महत्वपूर्णपदक्षेपः वर्तते। अद्य नवदिल्ल्यां श्रीगोयलः वार्ताहरैः सह सम्भाषणे इदं प्रोक्तवान्। शिक्षामन्त्रालयेन NCERT इति राष्ट्रियशैक्षिकानुसन्धानसंस्थानं पृथक् श्रेण्यां मानितविश्वविद्यालयः घोषितः। शिक्षामन्त्रालयेन विश्वविद्यालयानुदानायोगस्य परामर्शे अयं निर्णयः स्वीकृतः। मन्त्रालयेन उक्तं यत् अस्मिन् सन्दर्भे विश्वविद्यालयानुदानायोगस्य पटले ऑनलाइन आवेदनं कृतमासीत्। अनन्तरं UGC इत्यस्य विशेषज्ञसमितेः परामर्शं विचार्य अयं निर्णयः विहितः। मन्त्रालयेन NCERT इत्यस्मै अनुसन्धानकार्यक्रमाणां, विद्यावारिधेः, नवाचारशैक्षिककार्यक्रमाणां च प्रारम्भस्य निर्देशाः प्रदत्ताः। NCERT एकं स्वायत्तं सङ्घटनं वर्तते। सर्वकारेण गतशताब्दस्य 61वें वर्षे अस्य स्थापना कृता। NCERT इत्यस्य उद्देश्यं विद्यालयीयशिक्षायाः सम्बद्धक्षेत्रेषु अनुसन्धानं, तस्य संवर्धनं, समन्वयनं, पाठ्यपुस्तकानां पूरकसामग्र्याः च निर्माणं, प्रकाशनं च वर्तते। नौसेनया अद्य विशाखापत्तनमस्थले नौसेना डाक्यार्ड इत्यत्र अत्याधुनिक स्टील्थ फिग्रेट यूनिट युद्धपोतः INS तारागिरी निजसञ्चये स्थापितः। मजगांव डाक शिप बिल्डर्स लिमिटेड इति समवायेन अयं पोतः निर्मितः। अयं हि युद्धपोत प्रोजेक्ट 17A इति श्रेण्याः चतुर्थः पोतः वर्तते। रक्षामन्त्रिणा राजनाथसिंहेन समारोहस्य अध्यक्षता कृता। अत्रावसरे श्रीसिंहेन उक्तं यत् 47-2000 यावत् विकसिता राष्ट्रनिर्माणाय भारतस्य लक्ष्याय सामुद्रिकशक्तिः महत्वपूर्णा वर्तते। तेनोक्तं यत् देशस्य 11,000 किलोमीटर मिताधिका सुदीर्घा सामुद्रिकसीमा अस्ति। भारतं 3 दृक्षु समुद्रेण परिवृतं वर्तते।
जब भी वहां तनाव की स्थिति होती है, इंडियन नेवी ने हमारे कमर्शियल से ऑयल टैंकर की सिक्योरिटी इंश्योर की है। हमारी नौसेना ने यह सिद्ध किया है कि वह न केवल भारत के हितों की रक्षा करने में सक्षम है, बल्कि आवश्यकता पड़ने पर दुनिया भर में अपने नागरिकों और व्यापारिक मार्गों को सुरक्षित रखने के लिए हर कदम उठा सकती है।
पोतपत्तन परिवहन जलमार्ग मंत्रिणा सर्वानंद सोनोवालेन गुजराते दीनदयाल पत्तन प्राधिकरणस्य पत्तन संपर्क परियोजनायै 32-100 कोटि रूप्यकाणि अनुमितानि। अयं हि देशे पत्तन विकास समेधनस्य दिशि महत्वपूर्णः पदक्षेपः वर्तते। श्री सोनोवालः अवदत् यत् अनया परियोजनया प्रधानमन्त्रिणः नरेन्द्रमोदिनः दूरदर्शी नेतृत्वे आधुनिक कुशल बाधारहित पत्तन सम्पर्कं प्रति प्रशासनस्य प्रतिबद्धा अवलोक्यते। अमुना उक्तं यत् अनेन पत्तनेषु भारतस्य प्रबन्ध दक्षता दृढा भविष्यति। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। पश्चिमबंगाले आरक्षिबलेन मालदा जनपदे 7 न्यायाधिकारिणः विरुध्य मुख्य षड्यन्त्रकारिणं समेत्य जनद्वयं सिलिगुड़ी इत्यस्य बागडोगरा विमानपत्तनात् निगडिताः। मुख्य आरोपिणः अभिज्ञानं अधिवक्तुः मुफक्करुल इत्लाम इति रूपेण जातं। यो हि विमाने प्रवेशप्रयासे समये निगडितः। आरक्षि अपरमहानिदेशकः के जयरामनः अवदत् यत् मुफ्फकरुल इस्लामः उत्तर दिनाजपुर जनपदस्य इटाहार स्थलस्य निवासी अस्ति। सम्प्रति असौ कोलकातायां निवसति। अपरारक्षि महानिदेशकेन उक्तं यत् बुधवासरे भाषणानां माध्यमेन स्थानीयजनान् कथितरूपेण प्रोत्साहनस्य आरोपे कालियाचक आरक्षिस्थात्रे अमुं विरुध्य प्रकरणत्रयं पञ्जीकृतम् अस्ति। सम्पूर्णे देशे अद्य गुड फ्राइडे पर्व परिपाल्यते। जगति अद्य प्रभोः ईशु मसीहस्य इत्यस्य संस्मरणं विधीयते। गिरिजागृहेषु विशेष प्रार्थना सभाः आयोज्यन्ते। प्रधानमन्त्रिणा नरेन्द्रमोदिना गुड फ्राइडे पर्वणः अवसरे ईशु मसीहस्य बलिदानस्य स्मरणं कृतम्। तेन उक्तं यत् अयं दिवसः जनान् करुणा क्षमा सेवा प्रभृति आदर्शान् पालयितुं प्रेरयति। उपराष्ट्रपतिः सीपी राधाकृष्णनः एकस्मिन् सामाजिकसञ्चारपटले अलिखत् यत् भगवतः ईशु मसीहस्य जीवनं सत्यमार्गस्य अनुसरणं विधाय जनकल्याणाय कार्यं कर्तुं प्रेरयति। भारतीय जनता पार्टीति दलेन तमिलनाडु विधानसभा निर्वाचनाय AIADMK दलस्य नेतृत्वे राष्ट्रिय जनतांत्रिक संयुतेः 27 प्रत्याशिनां सूची प्रकाशिता। अस्यां सूचौ केन्द्रीय सूचना प्रसारण राज्यमन्त्रिणः डॉक्टर एल मुरुगनस्य, डॉक्टर तमिलासाई सौन्दर राजनस्य, भाजपादलस्य प्रदेशाध्यक्षस्य नयनार नागेन्द्रस्य च नामानि सम्मिलितानि सन्ति। कांग्रेस दलेन अपि विधानसभा निर्वाचनाय 28 प्रत्याशिनां नामानि सूचितानि। तमिलनाडु राज्ये विधानसभा निर्वाचनम् अस्य मासस्य 23 भविष्यति। भारतस्य निकहत जरीनः प्रिया गंघा सह प्रीति पवारश्च एशियन बॉक्सिंग चैंपियनशिप इति मुष्टामुष्टि स्पर्धायां उपान्त्यचक्रे प्रविष्टवत्यः। इति वार्ताः।